चित्तक्षेत्रे परिधि गुणित व्यासपादः फलं तत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जालम् भवति नियतं गोलगर्भे घनाक्षे।